इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। लोकसभा निर्वाचनानां प्रथम चरणार्थं प्रचाराभियानं गतसायं सम्पन्नम्। एतस्मिन् चरणे 17 राज्यानां 4 केन्द्रशासित प्रदेशानां च 2,100 संख्याकेष् निर्वाचन क्षेत्रेष् शुक्रवासरे मतदानानि भविष्यन्ति। अरुणाचलप्रदेशे, मेघालये, मिजोरमे, नगालैण्डे, सिक्किमे, अण्डमान निकोबार द्वीप समूहे, लक्षद्वीपे, पुदुच्चेर्यां, उत्तराखण्डे, तमिलनाडौ च सर्वेभ्यः लोकसभासनेभ्यः एतस्मिन् एव चरणे मतदानानि भविष्यन्ति। चरणेऽस्मिन् आहत्य 25,600+ प्रत्याशिनां राजनैतिक भाग्य निर्णयः भविष्यति। प्रधानमन्त्री भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता नरेन्द्र मोदी ह्यः त्रिपुरायां कांग्रेस कम्युनिस्ट दलम् इण्डिया संयुतिं च आक्षिपत्। तेन उक्तं यत् दलद्वयं दक्षिणभारतस्य केरलराज्ये परस्परं विरोधि वर्तते। अगरतलायां नैर्वाचनिक जनसभां सम्बोधयन् प्रधानमन्त्री नामोल्लेखं विनैव कांग्रेसदलं समाक्षिपत् यत् दलस्य युवराजः उत्तरप्रदेशात् पलायितः केरले च शरणम् अधिगच्छति। ततः पूर्वं प्रधानमन्त्री उक्तवान् यत् भाजपेति दलस्य नेतृत्वे राष्ट्रिय जनतान्त्रिक संयुतिः समेषां समावेशने विश्वसिति। प्रधानमन्त्री उक्तवान् यत् केनापि सह भेदभावं विनैव प्रत्येकमपि जनः समेषां प्राशासनिक योजनानां लाभं प्राप्नोति। असमराज्यस्य नलबाडी स्थले जनसभां सम्बोधयन् श्रीमोदी उक्तवान् यत् निर्धनेभ्यः शुल्कमुक्त खाद्यान्नस्य प्रावधानं यथावस्थमेव स्थापयिष्यते। अपि च आगामि 5 वर्षेष् 3 कोटि संख्याकाः आवासाः निर्मास्यन्ते इत्यपि समाश्वासितवान् प्रधानमन्त्री। तेन एतदपि कथितं यत् भाजपेति दलस्य संकल्पपत्रानुसारि 70 वर्षात् अधिक आयुवर्गस्य सर्वेभ्यः वृद्धेभ्यः आयुष्मान भारत योजनायाः लाभं प्रदास्यते। अनया योजनया परिवारेष् व्यय समस्या प्रायः अल्पमिता भविष्यति। अत्रान्तरे प्रधानमन्त्री कांग्रेस दलं कट्वालोचितवान्। तेन आक्षिप्तं यत् कांग्रेस दलेन असमं पूर्वोत्तरस्य अन्यानि क्षेत्राणि च नैव अवलोकितानि। भाजपेति दलं समावेशने विश्वसति, अपरतः कांग्रेस दलं च पृथक्तावादं समर्थयति। प्रधानमन्त्री उक्तवान् यत् असमराज्यस्य जैव विविधता संस्कृतिः चेति द्वयमपि अतीव समृद्धा अस्ति। एतत् वैश्विकमञ्चं प्रापयितुं प्रधानमन्त्री समाश्वासितवान्। प्रधानमन्त्री उक्तवान् यत् केन्द्रप्रशासनेन कृषकाणां हितं निध्याय न्यूनतम समर्थन मूल्ये वृद्धिः अभवत्। लोकसभा निर्वाचनानां चतुर्थ चरणस्य कृते अद्य अधिसूचना प्रसारयिष्यते। एतस्मिन् चरणे 9 राज्येष् 1 केन्द्रशासित प्रदेशे च 96 लोकसभासनेभ्यः मे मासस्य 3 दिनांके मतदानानि भविष्यन्ति। युक्रेन देशे उत्तरीये चेरनीहिव नगरे गतदिने रूसीय प्रक्षेपास्त्रैः बालद्वयं समेत्य 14 जनाः व्यापादिताः। अत्र आक्रमणे 60+ जनाः व्रणिताः अपि जाताः। अत्र आक्रमणे अनेकानि भवनानि चिकित्सालयाः च ध्वस्ताः जाताः। अन्ते क्रीडावार्तासु, इण्डियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतरात्रौ अहमदाबादे नरेन्द्र मोदी क्रीडांगणे आयोजिते द्वन्द्वे डेल्ही कैपिटल्स दलेन गुजरात टाइटन्स दलं 6 क्रीडकैः पराजितम्। अद्यतने द्वन्द्वे चण्डीगढ़े पंजाब किंग्स दलं मुंबई इंडियंस दलेन स्पर्धिष्यते। भारतीय कालानुसारि इयं स्पर्धा सायं 7:30 आरप्स्यते। वार्ताः।